सर्वेभ्यो नमः. अत्र आरम्भे कोऽपि अथवा कापि प्रार्थनारूपेण श्लोकं वदति वा? गीताञ्जलिभगिनी भवती गतवर्गे कृतवती, यदि अन्ये को लक्ष्मीभगिनी वक्तुम् इच्छति वा, अथवा नो चेत् गीताञ्जलिभगिनी करोति इति मन्ये, अथवा रघुपतिमहोदय कर्तुम् इच्छति वा श्लोकं? अस्तु अस्तु महोदय.
ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतवस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः महोदय. धन्यवादः. अस्तु, आरम्भं कर्तुं शक्नुमः. अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तशब्दानां विभक्तयः. अत्र गतवर्गे अपि तस्य पूर्वमपि पुल्लिङ्ग हलन्तशब्दानां परिचयम् अभ्यासं सर्वं कृतवन्तः, एकां कथामपि पठितवन्तः. इदानीं मूलविषयः भवति तत्र हलन्तशब्दानां स्त्रीलिङ्गरूपाणि, प्रथमविभक्तिरूपाणि. तत्र तस्य पूर्वम् एकवारं तत्र स्वरूपमहोदयस्य करपत्रं, तत् लिङ्क् अपि मया प्रेषितमस्ति. अपि अद्यतनवर्गार्थमपि एकं करपत्रमपि नियोजितमासीत. तदपि पठामः अद्य. अतः प्रथमतया तत्र स्वरूपमहोदयस्य करपत्रं यदस्ति तत्र केवलं तत्र विभक्तिद्वयम् इति तस्य अभ्यासं कृत्वा स्त्रीलिङ्गपदानां परिचयं कुर्मः. तत्र हलन्तशब्दानां तत्र भवान् इति शब्दः अस्ति, अपि आत्मा इति शब्दः, तद् द्वयं स्वीकुर्मः. तत्र नरेश महोदय, नमस्कारः. नमस्कारः महोदय. तत्र भवान् शब्दस्य रूपाणि एकवारं वदति वा, सर्वाणि विभक्तिरूपाणि?
भवान् शब्दस्य,
भवत् शब्दस्य, भवान् इति आरभ्य.
आम्, भवान्, भवन्तौ, भवन्तः, भवन्तं, भवन्तौ, भवतः, भवता, भवद्भ्यां, भवद्भिः, भवते, भवद्भ्यां, भवद्भ्यः, भवतः, भवद्भ्यां, भवद्भ्यः, भवतः, भवतोः, भवतां, भवति, भवतोः, भवत्सु.
इति समीचीनं महोदय, समीचीनं.
नमस्कारः, ललिता गणेशन् अस्मि.
ललिता भगिनी, ललिता भगिनी नमस्कारः. नमस्कारः,
सुप्रभातं.
चिन्ता मास्तु भगिनी. अस्तु, इदानीं तत्र अपि आत्मापदस्य तत्र पूर्णेन्दुमहोदय, आत्मापदस्य विभक्तिरूपाणि एकवारं वदति वा?
शुभदा.
शुभदा, नमस्कारः भगिनी.
नमस्कारः महोदय.
भगिनी, तत्र तत्र ईमेल् द्वारा प्रेषितं तत्र करपत्रमस्ति, स्वरूपमहोदयेन लिखितं करपत्रं, तत्र हलन्त शब्दानां विभक्ति रूपाणि, तद् अस्ति वा? अपि अन्यत् अपि करपत्रम् आवश्यकम् अस्ति अस्मिन् वर्गार्थं, तत्र अस्य वर्गार्थं, तत् तदपि अत्र अस्ति. तत्र स्त्रीलिङ्ग हलन्तशब्दानां परिचयरूपेण एकं करपत्रम् अपि अस्ति. तत्र ईमेल् मध्ये तत्र द्वितीय लैन् मध्ये एव अस्ति, तत्र हैलैट् कृतम् अस्ति. तदपि आवश्यकम् अस्ति. अस्तु भगिनि, भवती अपि वदति खलु वर्गे?
Yeah, sure.
Astu. Astu, bagini. Astu.
I don't have a practice of speaking Sanskrit, but I would surely try.
Astu.
Kintu bagini. Hum prayatnam karomi.
Astu, bagini. Kintu abhyasa pustakam etadrisham krutavati va bhavati purvam? अस्तु अतः केवलं तत्र वदनस्य तत्र बहु किमपि न उक्तवती किन्तु जानाति इति तादृशी स्थितिः वा अस्तु अस्तु भगिनि समीचीनमेव अस्तु अस्तु पूर्णेन्द्र महोदय तत्र आत्मा शब्दस्य विभक्तिरूपाणि एकवारं वदति वा महोदय
सर्वाणि रूपाणि वदामि महोदय एकवचन बहुवचन सर्वाणि
सर्वाणि तत्र एतत् कण्ठस्थीकरणम् अस्ति महोदय अतः वर्गं वर्गम् एकम् अथवा द्वयं यदि शृण्मः चेदपि मनसि स्थापितं भवति इति आशयः तावदेव
आत्मन् नकारान्तः आत्मन् आत्मा आत्मानौ आत्मानः आत्मानम् आत्मानौ आत्मनः आत्मना आत्मभ्याम् आत्मभिः आत्मने आत्मभ्याम् आत्मभ्यः आत्मनः आत्मभ्याम् आत्मभ्यः आत्मनः आत्मनोः आत्मनाम् आत्मनि आत्मनोः आत्मसु सम्बोधने आत्मन् आत्मानौ आत्मानः
इति समीचीनं महोदय एतादृश प्रतिवर्गं किञ्चित् एतादृश अभ्यासं भवतु इति चिन्तनं तावदेव अस्तु अग्रिमे वर्गे अपि एतद्वयं कुर्मः तदनन्तरं वणिच् शब्दस्य अपि कुर्मः तदनन्तरं तत्र वणिच् शब्द विहाय तत्र अन्यत् जकारान्तपदम् अथवा भवत् शब्द विहाय तत्र भगवत् शब्दम् अस्ति अथवा गच्छत् शब्दम् अस्ति शब्दः अस्ति तत् स्वीकृत्य एतादृशम् अभ्यासं कुर्मः निमेषद्वयमेव भवति किन्तु बहु लाभः अस्ति इति मन्ये अस्तु अस्तु तर्हि इदानीं तत्र अग्रे गच्छामः अद्यतनमूलविषयः अस्ति तत्र हलन्तशब्दानां स्त्रीलिङ्ग हलन्तस्त्रीलिङ्गाः शब्दाः इति तत्र मया प्रेषितं करपत्रम् अस्ति तत्र सर्वे प्राप्तवन्तः इति मन्ये अस्तु तर्हि तत्र ललिता भगिनी आरम्भं कर्तुम् इच्छति वा तत्र अस्तु गीताञ्जलि भगिनी आरम्भं कर्तुम्
इच्छति
ललिता भगिनी अस्तु
करोमि स्त्रीलिङ्गाशब्दाः पञ्चमः पाठः अधो लिखितानि वाक्यानि पठत योषित् दूरदर्शनं पश्यति योषितौ मेघं पश्यतः योषितः दूरदर्शनं पश्यन्ति
अस्तु इदानीं योषित् इत्युक्ते किम् इति वदति वा
युवकः योषित् पुल्लिङ्गशब्द आफ् पुल्लिङ्ग युवकः पुल्लिङ्गशब्दः योषित् स्त्रीलिङ्गशब्दः यूथ् यङ्ग् पर्सन् नो
तत्र योषित् इत्युक्ते महिला इति अर्थे तावदेव भगिनि नारी महिला तावदेव तत्र योषित् इत्युक्ते तत्र महिला नारी तावदेव नारी इति समीचीनं भगिनि योषितौ योषितौ
अद्य
वदतु महोदय तत्र महोदय मया प्रेषितं तत्र ईमेल् द्वारा तत्र द्वितीयपङ्क्ते तत्र तत्र लिखितमस्ति तत्र वि विल् यूस् दिस् करपत्रं टुडे इति
डौन्लोड् दिस् लिङ्क्
तत्र अद्य तत्र स्मारणपत्रे तु बहु किमपि अस्ति किन्तु तत्र पूर्ववर्गस्य पूर्व अतः क्लेशः अस्ति अतः तत्र गृहपाठे यदस्ति तद् मा पश्यतु इदानीं मास्तु तत्र केवलं तत्र हैलैट् मध्ये प्लीस् डौन्लोड् दिस् फैल् लिङ्क् हियर् इति यद् अस्ति तद् आवश्यकमस्ति महोदय
प्राप्तवान्
अस्तु
सोरि ऐ हाव् नाट् येट् रिसीव्ड् इट्
शुभदा भगिनी वा एकवारम् एकनिमिष भगिनी एकनिमिषम् तत्र लिंक प्रेषयामि तत्र एकनिमिषः एकनिमिष भगिनी
Okay, please download this file linked here. Is that the one?
Okay,
I got it. Sorry for
that.
Asti
chet samichinam. Asti bhagini.
Shasman pustake asti
etat. Etat mohadiya tatra rashtriya samskruta samsthanam iti. Tesham pustakam asti. Teach yourself Sanskrit. Samskruta swadhyayaha. Dvitiya diksha iti. तत्र पञ्च दीक्षाः सन्ति अत्र एतत् द्वितीयदीक्षा इति अस्ति बहु समीचीनम् अस्ति
मम समीपे अस्ति एव द्वितीयदीक्षायाः
प्रथमभागः पुटसङ्ख्या अस्ति पुटसङ्ख्या अस्ति 62 महोदय
पुस्तकस्य नाम किम् अस्ति
पुस्तकस्य नाम अस्ति नरेश महोदय व्यवहार प्रदीपः इति तत् राष्ट्रियसंस्कृतसंस्थानस्य टीच युर् सेल् संस्कृत् इति एक सीरीस् अस्ति तत्र पञ्चदीक्षाः सन्ति एतत् पुस्तकं द्वितीया दीक्षायाः प्रथमभागः अस्मिन् पुस्तके तत्र हलन्तशब्दानाम् अपि अजन्तशब्दानां द्वयोः अपि तत्र विभक्तिरूपाणि तेषां परिचयं कृतम् अस्ति
पश्यामि
अस्ति वा भवतः समीपे अस्ति वा महोदय एतत् पुस्तकम् अस्तु अस्तु द्वितीयदीक्षा प्रथमभागः पुटसङ्ख्या अस्ति महोदय 62
समीपे अस्ति
समीचीनं महोदय अस्तु समीचीनं
मम समीपे अपि अस्ति महोदय
बहु समीचीनम् अस्ति मह्यं बहु रोचते महोदय एतत् पुस्तकं यतः तत्र हलन्तस्त्रीलिङ्गशब्दाः पृथक् परिचयम् अस्ति तदनन्तरं नपुंसकस्त्रीलिङ्गपदानां परिचयम् अस्ति किन्तु गीतासोपाने तत्र मिश्रितपरिचयम् अस्ति तत्र अतः तत्र क्लेशः भवति
महोदय पुनः पुस्तकस्य नाम वदतु महोदय कृपया
तत्र एतदस्ति भगिनि तत्र राष्ट्रियसंस्कृतसंस्थानस्य व्यवहारप्रदीपः इति टीच युर् सेल्फ् संस्कृत टीच युर् सेल्फ् संस्कृत इति एकं सीरीस् अस्ति तत्र पञ्च दीक्षाः सन्ति पञ्चभागाः खण्डाः सन्ति फैव् वाल्यूम्स् व्यवहारप्रदीपः प्रदीपः संस्कृतसंस्थानस्य तत्र वाल्यूम् 1 मध्ये केवलं तत्र परिचयरूपेण सर्वं दत्तमस्ति किन्तु तत्र द्वितीयभागे द्वितीयदीक्षायां प्रथमभागे तत्र विभक्तिरूपाणि सर्वं दत्तानि सन्ति तदनन्तरं द्वितीयभागे द्वितीयदीक्षायाः द्वितीयभागे तत्र आत्मनेपदानां विभक्तिरूपाणि सर्वं दत्तानि सन्ति भगिनि पञ्चभागाः सन्ति भगिनि बहु बहु समीचीनम् अस्ति एतत् भागः इत्युक्ते दीक्षा पञ्चदीक्षाः सन्ति भागः तु द्वितीयदीक्षायां भागद्वयम् अस्ति भगिनि एतद् भागः एव किं तत्र 300+ पुटानि सन्ति अस्मिन् भागे कथाः अपि सन्ति अपि उदाहरणानि अपि सन्ति भगिनि
आन्लैन् मध्ये
न लभ्यते भगिनि अहम् अन्वेषणं कृतवान् यदि लभ्यते चेत् मह्यमपि सूचयतु मामपि सूचयतु
लभ्यते महोदय
लभ्यते वा सर्वमस्ति वा महोदय सर्वमस्ति वा अथवा केवलं प्रथमदीक्षा
द्वितीयदीक्षा
द्वयमपि अस्ति वा? ओ अस्तु, समीचीनम्. अस्तु भगिनि, अतः गीताञ्जलि भगिनी तत्र आन्लैन् मध्ये, नो चेत् पूर्णेन्दु महोदय यदि लिङ्क् अस्ति चेत् चाट् मध्ये तत्र प्रेषयतु महोदय. अस्तु अस्तु अस्तु,
द्वितीय तत्र न, अन्यत् तु नास्ति तत्र.
सत्यं सत्यम्. अस्तु पूर्णेन्दु महोदय, तदनन्तरं यदा समयः लभ्यते कृपया प्रेषयतु, अहं सर्वस्य कृते प्रेषयामि ईमेल् द्वारा. अस्तु महोदय, धन्यवादः महोदय. अस्तु अस्तु, ललिता भगिनी इदानीं तत्र योषित् इत्युक्ते महिला अथवा नारी इति.
अस्तु
अग्रे
पठामि,
पठतु भगिनि.
सृक् अस्ति, सृजौ स्तः, सृजः सन्ति. सृक् मीन्स् गार्लिङ्ग्.
तत्र अजन्तपद माला,
माला
अस्ति. इदानीं तत्र स्रक् अस्ति इत्युक्ते माला अस्ति, स्रजौ स्तः इत्युक्ते माला इति किं, स्तः इति माला उपयुज्य किं भवति? न न न न, तत्र तत्र
द्विवचन,
द्विवचन अस्ति तत्र,
माले
माले, समीचीनं, माले, माला, माले, मालाः, माले स्तः अपि मालाः, मालाः सन्ति. समीचीनं, समीचीनम्. अस्तु अग्रे गीताञ्जलि भगिनि, अग्रे.
अप्सराः नृत्यति, अप्सरसौ नृत्यतः, अप्सरसः नृत्यन्ति.
इदानीं पश्यतु तत्र योषित् वयं दृष्टवन्तः तत्र सहृद् सुहृदौ सुहृदः, तत्र तद्दृष्ट्वा तत्र क्लेशः नास्ति खलु? तत्र एकवचने यौषित् अस्ति चेत् तत् एकवचनं भवितुम् अर्हति इति चिन्तयामः. स्रक् स्रजौ स्रजः तत्रापि तत्र मुनिः मुनि मुनयः, तत्र बहुवचने तत्र विसर्गः अस्ति, तत्र स्रजः, तत्र बहु किमपि क्लेशः न भवति खलु? किन्तु अप्सराः इति पश्यामः, किन्तु तद् एकवचने अस्ति, अतः अत्र सावधानम्.
अप्सरसौ इत्युक्ते प्रातिपदिकं स अन्ते महोदय.
तत्र बहुवचनं दृष्ट्वा समीचीनं भगिनि, अप्सरसः इति वयं पूर्वस्मिन् वर्गे दृष्टवन्तः खलु, तत्र हलन्तशब्दानाम् अन्तिमवर्णस्य निर्णयं कथं कुर्मः, तत्र बहुवचनस्य अन्तिमवर्णं दृष्ट्वा किं
वयं जानीमः, तदेव अन्ते प्रातिपदिक,
प्रातिपदिकस्य अन्तिमवर्णः अपि इति. समीचीनं भगिनि, अतः अप्सरसः इति
महोदय. अप्सराः नृत्यति इति तु किञ्चित् क्लेशः जातः.
क्लेशः भवति, सत्यं भगिनि. अतः अत्र सावधानम्, अप्सरसौ द्विवचने अस्ति इति तद् प्रायशः स्पष्टमस्ति. अप्सरसः तत्र ददाति ददति इति तादृशः अस्ति खलु, तत्र ददाति दीर्घकारः अस्ति, तदनन्तरं ददति इति तादृश, अत्र अपि चिन्तनम्. अप्सराः इति एकवचने अस्ति, अप्सरसः इति बहुवचने अस्ति इति. अस्तु तत्र अतः एतावत् किं किं दृष्टवन्तः, कीदृश हलन्त स्त्रीलिङ्गपद पदानि दृष्टवन्तः वयं, यो प्रथमं कीदृशपदमस्ति योषित् योषितौ योषितः, तकारान्तपदं, तदानीं स्रक् स्रजौ स्रजः तत् कीदृशपदमस्ति, जकारान्त. इदानीं तत्र अप्सराः अप्सरसौ अप्सरसः तत् अस्ति सकारान्त, सकारान्तपदम्. अप्सरा अप्सरा इति वयं चिन्तयामः, किन्तु तत् अप्सराः इति एकवचने अस्ति, अप्सराः तत् तां जानीमः, अप्सरां द्वितीया विभक्ति इदानीं न जानीमः, किन्तु अप्सरा अप्सराः या अस्ति तां जानीमः, अप्सरा इत्युक्ते किं का इति वयं जानीमः. अस्तु अग्रे
शब्दमञ्जरी मध्ये महोदय शब्दमञ्जरी मध्ये भास् इति भास्वत् अप्सर अप्सरस् इति भास्वत् भासौ भासः इति दत्तम्
किं दत्तमस्ति भगिनि भासः अस्तु भगिनि भा तत्र तस्य पदस्य अर्थः कः
लैट् महोदय भास्
भास् अस्तु लैट् ओ अस्तु अस्तु लैट्
भास्कर
भास्करः यः भास् करोति हा सः भास्करः समीचीनं धन्यवादः महोदय
आङ्ग्लभाषायां तत्तु महोदय तदेव
हा अस्तु 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 बास्क् इन् द सन्लैट् इति अस्ति अस्तु भगिनि हा अस्तु समीचीनम् अस्तु हा बास्किङ्ग् इन् ग्लोरि हा समीचीनं अस्तु हा अस्तु इदानीं तत्र तत्र इदानीं तत्र हा पूर्णेन्दु महोदय वदतु महोदय
लिङ्क् प्रेषितवान्
ओ धन्यवादः महोदय बहु समीचीनमस्ति महोदय धन्यवादः हा धन्यवादः महोदय अहमपि न ज्ञातवान् तद् लभते इति अतः अहं स्केन् कृतवान् नो चेत् अहं केवलं तत्र पश्यन्तु इति समीचीनमस्ति धन्यवादः महोदय हा अस्तु इदानीं तत्र
यद् भगिनी पठितवती तद् अत्र मम समीपे नास्ति कुत्र पठति इति अहं न जानामि
भगिनी तत्र ईमेल् द्वारा तत्र मया प्रेषितमासीत् तत्र द्वितीय वाक्ये एव अस्ति तत्र वि विल् यूस् दिस् फैल् लिङ्क् टियर् इति तत् क्लिक् करोतु प्राप्नोति अस्तु इदानीम् अग्रे गच्छामः
क्षम्यतां महोदय गीताञ्जलि भगिनी किं वदति बाहा बाहो वाट् इस्
भगिनी अहम् इति उक्तवती भगिनी अप्सराः अप्सरसौ अप्सरसः इति भास्वत् भास् अपि एकं सकारान्त स्त्रीलिङ्गपदमस्ति भास्
भास्
इत्युक्ते इत्युक्ते प्रकाश
शैन् शैन्
तत्तु समान एव भगिनी भाहा भासौ भासः इति
ओ थेङ्क् यु धन्यवादः 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 भगिनि भाहा भास
अस्तु समीचीनम् अस्तु अग्रे पूर्णेन्दु महोदय इदानीम् अग्रिमे पुटे यदस्ति तत् पठति वा तत्र
एतानि वाक्यानि पठत वाक् हिन्दी अनुवादसहित पठामि वा
न न न केवलं संस्कृतं
वाचौ वाचः स्रक् स्रजौ सृजः तत्र मूर्त्यौ स्रक् अस्ति मूर्त्योः सजौ स्त मूर्तिषु सजः सन्ति सरिस् भ्रमः अस्ति वा अस्ति स्तः तत्र विसर्गः नास्ति
हा तत्र प्रायशः मुद्रणदोषः अस्ति महोदय
मुद्रणदोषः
स्रजौ स्तः
अनन्तरं सरित् वहति सरितौ वहतः सरितः वहन्ति
हा तत्र सरित् इत्युक्ते किम् इति जानन्ति वा तत्र वाक् इति तत्र वाक् मधुरा अस्ति तत् जानीमः अपि स्रक् इति इदानीमेव दृष्टवन्तः इदानीं सरित् वहति वहति इति दृष्ट्वा जानीमः हा नदी नदी वहति इति नदी वहति
द्यूत्रा नदी इति अर्थे सरित् तस्य प्रयोगं क्रियते चिन्तयामि
सत्यं महोदय
अनन्तरं विपत् आपतति विपदौ आपततः विपदः आपतन्ति
हा तत्र विपद् इति तत्र स्त्रीलिङ्गे अस्ति तत्र विपद् इत्युक्ते तत्र अजन्तपदं कोऽपि जानाति वा विपद् इति समानार्थकपदम्
अपाय आपद
अपायः अपायः अपि तत्र विपधा अपि पदमस्ति. विपधा इति अपि तद् विपद् एव समानार्थकपदमस्ति. तद् आकारान्तपदमस्ति.
पुल्लिङ्गपदमस्ति.
आपदः इति आपदः इति पुल्लिङ्गपदमपि अस्ति. आपदः अथवा अपायः इति तु पुल्लिङ्गपदमस्ति महोदय. आपद् इति स्त्रीलिङ्गपदमस्ति. दकारान्तपदं विपद् इति अर्थे आपद् अपि आपत्तिः इति अस्ति मतिशब्दवत् स्त्रीलिङ्गपदं. किन्तु अतः अनेकाः पदाः अनेकानि पदानि सन्ति. किन्तु विपद् अपि इदानीं तत्र
क्लू नास्ति महोदय. कथं पुल्लिङ्ग अथवा स्त्रीलिङ्ग इति हलन्तशब्देषु किमपि नास्ति खलु.
तत्र इदानीं तत्र पश्यामः तत्र तकारान्तपदं तत्र सुहृद् इति यद् दृष्टवन्तः तत्र अग्रे गत्वा एकवारं तत्र स्वरूपमहोदयस्य करपत्रं पुनः पश्यामः महोदय. तत्र क्लू लभति न वा इति. किन्तु प्रायशः महोदय तत्र किं तत्र एकं यदि क्लू न लभते चेत् तत्र प्रायशः एकः अड्वाण्टेज् अस्ति इति वक्तुं शक्नुमः. इत्युक्ते तत्र सर्वाणि सर्वाणि रूपाणि समानानि भवन्ति चेत् सुलभं भवति खलु. तदपि तस्या दृष्ट्या तया दृष्ट्या अपि चिन्तनं भवितुम् अर्हति. अतः अतः तत्र अजन्तपदानां तत्र रूपाणि भिन्नानि सन्ति इति कृत्वा तत्र लिङ्गं दृष्ट्वा सर्वं दृष्ट्वा वक्तव्यमस्ति. किन्तु अत्र प्रायशः सरलता अस्ति इति मन्ये महोदय. अतः प्रायशः लिङ्गज्ञानं क्लिष्टः किन्तु विभक्तिरूपाणि सुलभानि इति सरला इति. अस्तु इदानीम् अग्रे शुभदा भगिनि अग्रे पठति वा. विपत् कृतम् इदानीं परिषद् इति.
परिषद् भवति. परिषदौ भवतः. परिषदः भवन्ति.
हा परिषदः भवन्ति. तत्र परिषद् इति तत्र अकारान्त अथवा अकारान्त न अजन्तपदं समानार्थकपदं जानाति वा अन्यत् पदं परिषद् इति. अन्य कोऽपि जानन्ति वा. तत्र अनेकाः सन्ति शब्दाः सन्ति तत्र
दकारान्त
महोदय. न न परिषद् इति दकारान्तपदम् अस्ति भगिनि. किन्तु समानार्थक अजन्तपदम् परिषद् तत्र महिलापरिषद् महिलापरिषद् इति प्रसिद्धः अस्ति खलु. किन्तु तत्र तत्र तादृशप्रायश तदपि भवति इति मन्ये महोदय. किन्तु तत्र अहं चिन्तयामि तत्र समाजः अथवा संस्था हा संस्था इति तत्र परिषद् इति अर्थे अस्ति खलु. अतः तद् योजयामश्चेत् सुलभं भवति इति कृत्वा तावदेव. तत्र नो चेत् यदि परिषद् इति पदस्य विभक्तिः आवश्यकमस्ति किन्तु न स्मरामः. किन्तु तत्र संस्था इति स्मरामः. अस्तु तत्र संस्थायाः इति वक्तुं शक्नुमः खलु. अतः तावदेव. अस्तु तत्र शुभदा भगिनी भवती जानाति वा तत्र नियमः अस्ति हलन्तपदानां. तत्र प्रथमाविभक्तिरूपाणि दृष्ट्वा वयं वक्तुं शक्नुमः प्रातिपदिकस्य अन्तिमवर्णः कः इति. अतः तत्र परिषदः इति दृष्ट्वा तत्र प्रातिपदिकस्य अन्तिमवर्णः कः इति वदति वा.
No, I won't be able to tell that.
अतः दकारान्तपदम् अस्ति बहुवचनरूपं. बहुवचनरूपं दृष्ट्वा तत्र अन्तिमवर्णः द इति अस्ति. अतः प्रातिपदिकमपि दकारान्त इति वक्तुं शक्नुमः. यतः तत्र
क्षम्यतां महोदय. संस्था इति कीदृशपदं महोदय?
आकारान्तस्त्रीलिङ्गपदं भगिनि, संस्था.
किमर्थं संस्कृत स्पोकन् संस्कृत मध्ये नास्ति एव?
अहं न जानामि भगिनि.
सामान्यपदं?
हा सत्यं भगिनि, समाजः अपि अस्ति पुल्लिङ्गे.
आकारान्तस्त्रीलिङ्गपदं
संस्था, तत्र महाप्राणः संस्था इति. अस्तु अग्रे भगिनि, शुभदा भगिनि अग्रे.
समित् ज्वलति, समिधौ ज्वलतः, समिधः ज्वलन्ति.
हा तत्र समित् इति तत्र जानाति वा समित् इत्युक्ते किम् इति?
इस् वाट् वी आफर् टु द यज्ञ.
हा समीचीनं, हा समीचीनं, हा समीचीनं, समीचीनं भगिनि, तावदेव, तदेव तदेव. हा अत्र तत्र कोऽपि जानाति वा तत्र अन्यत् पदं, तत्र समित् इति अन्यत् किमपि अजन्तपदम् अस्ति न वा इति अहं न जानामि. इष्टि अस्ति वा महोदय? अस्तु
यष्टिका इति अहं न जानामि.
तत्र तत्र
यष्टिका इति.
अस्तु कोऽपि जानाति चेत् वदतु, तद् अहं न जानामि तत्र. अस्तु तत्र
आहुतिः,
आहुतिः न न भगिनि, आहुतिः यत् अत्र समर्पयामः तद् आहुतिः भवति, किन्तु समित् इति यद् साक्षात् तत्र ज्वलति, फैर्वुड् यत् तत्र साक्षात् ज्वलति, तद् अस्ति समित् इति. किन्तु आहुति यत्र होमः भवति, होमे किमपि समर्पयामः देवाय, यद् समर्पयामः तद् भवति अथवा सा भवति आहुतिः अथवा इति तत्र. अतः भेदः अस्ति समित् इति फायर्वुड् इति यद् तत्र प्रायशः तत्र काष्ठम् इति वक्तुं शक्नुमः इति मन्ये, खलु महोदय रघुपतिमहोदय? काष्ठखण्डम् इति तादृश इति. अस्तु अपि शुभदा भगिनी, इदानीं तत्र समित् समिधौ समिधः प्रातिपदिकस्य अन्तिमवर्णः कः?
धकारान्त.
हा धकारान्तपदं, समीचीनं भगिनी. अस्तु अग्रे.
दिक् शून्या भवति, दिशौ शून्ये भवतः, दिशः शून्याः भवन्ति.
हा दिक् इत्युक्ते?
दिक् इस् डैरेक्षन्.
डैरेक्षन्, हा दिक् दिशौ दिशः, समीचीनं भगिनि. दिशः समीचीनम्. अग्रे
एष्टि इति अस्ति महोदय, एष्टि स्त्रीलिङ्ग अपि अस्ति, एष्टि इति पुल्लिङ्ग अस्ति, स्टिक्
स्टिक् इति एष्टि इति अस्ति वा महोदय? समीचीनं,
एष्टि अपि च ईकारः स्त्रीलिङ्ग अपि द्वयमपि अस्ति.
ओ अस्तु ह्रस्व ईकारः अपि दीर्घ ईकारः.
एष्टिः एष्टि इति स्त्रीलिङ्ग अस्ति.
ओ अस्तु समीचीनं,
मध्ये अस्ति.
अस्तु अस्तु,
धन्यवादः, इदानीं पश्यामि.
अस्तु महोदय धन्यवादः. हा धन्यवादः, समीचीनम्. अपि अन्तिमं भगिनि.
एण्ड् हौ दिस् शून्य गोस् लैक् माला, इस् इट् माला माले मालाः?
हा सत्यं भगिनि, आकारान्तपदं, सत्यम्
आकारान्तं. सो नेक्स्ट् इस् विद्युत् विद्योतते, विद्युतौ विद्योत विद्योतेते, विद्युतः विद्योतन्ते.
हा अत्र आत्मनेपदी धातु अस्ति तावदेव. विद्युत् विद्योतते शैन्स् इति प्रकाशते इति, प्रकाशते प्रकाशेते प्रकाशन्ते इति, तदपि तत्र वक्तुं शक्नुमः. अतः विद्युत् अपि कीदृशपदमस्ति?
विद्युत् इस् यु मोन् यु मीन् सिनोनिम्?
न न न, तकारान्तपदं, तकारान्तपदं, समीचीनं भगिनि. हा अस्तु, इदानीं तत्र किं किं दृष्टवन्तः एतावत्? वयं चकारान्तपदं, वाचः वाक् वाचौ वाचः चकारान्तपदं, चकारान्तपदं स्रक् स्रजौ स्रजः, तकारान्तपदं सरित् सरितौ सरितः, दकारान्तपदं विपद् विपदौ विपदः, अपि विपद् विपदौ विपदः, अपि परिषद् परिषदौ परिषदः, समानाः एव समानपदद्वयम् इति मन्ये. तदनन्तरं धकारान्तपदमस्ति महाप्राणधकारः, समित् समिधौ समिधः, किन्तु तत्र परिषद् तत्र प्रायशः तत्र केवलम् अल्पप्राणस्य स्थाने महाप्राणः स्थापनीयः इति मन्ये. तत्र पश्यामः तत्र रूपं कीदृशं भवति इति. तदनन्तरं शकारान्त धिक् दिशौ दिशः शकारान्तपदं, तदनन्तरं विद्युत् इति तकारान्तपदं. तत् तत्र भेदः प्रायशः नास्ति खलु? सरित् सरितौ सरितः, विद्युत् विद्युतौ विद्युतः, प्रायशः भेदः नास्ति. किन्तु तत्र इदानीं तत्र नूतनतया किम् अस्ति, तत्र शकारान्तपदम् इदानीं दृष्टवन्तः, किन्तु पुल्लिङ्गे प्रायशः तत्र शकारान्तपदं नासीत् खलु? सकारान्तपदम् आसीत् विद्वस् इति. अत्र सकारः नास्ति किन्तु शकारः अस्ति, दिक् दिशौ दिशः इति. अस्तु, समीचीनम्. इदानीं तत्र
एकः प्रश्नः महोदय. महोदय, दिक् शून्या भवति इत्युक्ते किम्?
तत्र दिक् शून्या भवति, दिशौ शून्ये भवति, तत्र किमपि नास्ति इति वा, अथवा तस्मिन् दिशौ शून्या? हा, अर्थः न जानामि भगिनि. तत्र न अवगतवान् अहम्. अन्य कोऽपि वक्तुम् इच्छति वा? कोऽपि
फीचर् नास्ति इति अत्येव.
हा, यत् तदेव अहमपि चिन्तितवान् महोदय, किन्तु हा सम्यक् न जानामि. रघुवीरानन्द महोदय नमस्कारः. महोदय तत्र रघुवीरानन्द महोदय अस्ति वा? अस्तु,
आम् अस्मि.
हा अस्तु, तत्र ईमेल् द्वारा प्रेषितं लिङ्क् फैल् इति अस्ति, तत्र द्वितीयपुटे स्मः इदानीम्.
ओ ओ ओ, अस्तु अस्तु, आम् महोदय. किन्तु महोदय, आहुति समित् काष्टकं तु केवलं किमपि वुड् काष्टकं भवति समित्.
अस्तु अस्तु, अस्तु, धन्यवादः. अतः तत्र अन्यपदम् अस्ति वा महोदय, समित् इति अर्थे?
मया न श्रुतं समित् इति अर्थे. तु समित् एव,
समित् एव अस्ति
रूढि.
अस्तु 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 अस्तु, अतः काष्ट काष्ठः इति वदामश्चेत् तत्र तस्य किं देश बृहत् भवति इति, इत्युक्ते अर्थः बृहत् अस्ति, काष्ठः जाति तत्र बृहत् अस्ति, किन्तु तस्मिन् अन्तर्भूतः एकः अस्ति एकः अस्ति समित्.
अतिव्याप्तदोषं भवति,
अतिव्याप्तिदोषः भवति. अस्तु, न्यायशास्त्रस्य अपि अत्र प्रयोगः. अस्तु, समीचीनम्. अस्तु, अग्रे गच्छामः. तत्र इदानीम् अग्रिमे पुटे पश्यामः. तत्र अभ्यासद्वयं कर्तुम् इच्छामः. तत्र प्रथमं तु केवलं रूपस्य अवगमनं, तत्र चकारान्तपदं कीदृशं भवति, चकारान्तपदं कीदृशं भवति इति, तत्सर्वम् अपि समानम् अस्ति न वा इति तद् एकवारं पश्यामः. तदनन्तरं तत्र एतस्य रूपस्य अभ्यासं कुर्मः. अस्तु, तर्हि तत्र अग्रे लक्ष्मी भगिनी पठितुम् इच्छति वा, इदानीं शक्नोति वा? तत्पद तत् तत्र ततः आरभ्य पठतु भगिनि. इदानीं वाच् अपि स्रच्
वाक् वाचौ वाचः सृज् सृक् सृजौ सृजः.
इदानीं तत्र सामान्यमस्ति वा भगिनि, तत्र चकारान्तपदं चकारान्तपदं स्त्रीलिङ्गपदम् अस्ति चेत् रूपाणि वक्तुं शक्नोति वा भवती तत्र?
आम्
शक्नोति. अस्तु भगिनि, समीचीनं.
महोदय, शब्दमञ्जरी मध्ये चकारान्त स्त्रीलिङ्ग पदमेव नास्ति,
तत्र प्रायशः प्रातिपदिकं न दत्तमस्ति भगिनि, तत्र केवलं प्रथमाविभक्तिरूपमेव दत्तम् इति मन्ये. स्पोकन् संस्कृत् मध्ये, स्पोकन् संस्कृत् मध्ये,
न स्पोकन् संस्कृत् न महोदय, शब्दमञ्जरी मध्ये,
शब्दमञ्जरी मध्ये इति वा चकारान्तपदम्
इत्युक्ते तत् ते किञ्चित् विरल सन्ति महोदय, चकार
न अनेकाः शब्दाः सन्ति भगिनि.
ओ
चकारन्तशब्दाः तत्र त्वच् वाच् स्रज् तादृशानि अन्यानि पदानि अपि सन्ति भगिनि. शब्दमञ्जरी शब्दमञ्जर्यां प्रायशः अस्ति तत्र तत्र प्रायशः अजन्तपदानां आवलिः अस्ति, तदनन्तरं हलन्तशब्दानाम् आवलिः अस्ति इति, किन्तु तत्र नास्ति वा? न जानामि भगिनि. अस्तु अस्तु भगिनि, न जानामि किमर्थम्. अस्तु अस्तु लक्ष्मी भगिनी, इदानीं तत्र अग्रे तत्र सरित् तडित् विद्युत् तदपि पठतु.
प्रातिपदिकं सरित् सरित् सरितौ सरितः सडित् सडित् सरितौ सडितः विद्युत् विद्युत् विद्युतौ विद्युतः.
तत्र विद्युत् अपि सरित् पूर्वं दृष्टवन्तः. तडित् इत्युक्ते कोऽपि जानाति वा? तडित् इत्युक्ते किं?
लैट्निङ्ग्.
लैट्निङ्ग् समीचीनं समीचीनं. तत्र
लेक् ओर् समथिङ्ग्, इस् इट् अ लेक्?
न न न न न लेक् सरस् इति अस्ति. तडागः किन्तु बहु समीचीनं समीपम् अस्ति भगिनि तत्र पदद्वयं सत्यं. तत्र लेक् अन्यत् पदमपि अस्ति, सरस् इति. सरस् इति मन्ये तत्र अग्रे अग्रे गीतासोपने अस्ति एतत् पदं, तत्र न स्मरामि. किन्तु
लेक् वापि
तत्र तत्र सरस् सरस् इति तत्र सरस् इति लेक् इति अस्ति. सरित् इति तत्र रिवर्. तत्र सरित् यत् सरति तत्र मूविङ्ग् वाटर् बाडि अस्ति सरित्. अपि स्टेशनरी स्टेशनरी बाडि यत् अस्ति तत् अस्ति सरस्. किन्तु सरस् इति तत्तु नपुंसकलिङ्गपदम् अस्ति, अतः अत्र न दत्तमस्ति. सरस् सकारन्त अत्र एतावत् अप्सरस् इति एकमेव सकारान्तस्त्रीलिङ्गपदम् अत्र दत्तम् अस्ति. अस्तु अस्तु अग्रे रघुवीरानन्दमहोदय अग्रे पठति वा? इदानीं तत्र आपद् विपद् सम्पद् इति
महोदय
तृतीये पुटे महोदय
तृतीयपुटे आपद् आपत् आपदौ आपदः. डकारान्तप्रातिपदिकम् अस्ति महोदय.
हा समीचीनं, डकारान्तप्रातिपदिकं समीचीनं. हा इदानीं तत्र विपद्
विपत् विपदौ विपदः. ओ तदपि डकारान्तपदमेव
अपि सामान्यमस्ति तत्र आपद् वा विपद् वा. इदानीं सम्पद्
सम्पत् सम्पदौ सम्पदः. तदपि डकारान्तप्रातिपदिकमस्ति महोदय.
हा समीचीनमपि तत्र प्रायशः नूतन डकारान्तपदं नास्ति खलु तत्र नूतनरूपम् इति नास्ति तत्र आपद् वा विपद् वा सम्पद् वा. एकं जानीमश्चेत् अन्यद्वयस्य ज्ञानमपि भवति तत्र. अतः तत्र उदाहरणत्रयम् अस्ति किन्तु एकम् एकस्य ज्ञानमस्ति चेत् अन्यानि अपि वयं कर्तुं शक्नुमः इति तावदेव अत्र.
किन्तु महोदय
अर्थभेदः अस्ति, अर्थभेदः अस्ति सत्यं. हा तत्र आपद् अपि विपद् प्राय समानार्थकं. हा सम्पत् इति सत्यं. हा सम्पत् इति सत्यं सत्यं भगिनि. हा समीचीनं तत्र
चेदपि आपद् भवति.
न न सम्पत् अस्ति चेदपि चेदेव आपद् भवति, भयः भवति. सम्पत् किं भवति, कः आगच्छति हर्तुम् इति. हा
तत्तु सत्यम्.
अस्तु अग्रे गच्छामः. हा इदानीं तत्र तत्र दकारान्तपदम् अन्यत् अस्ति तत्र तत्र प्रायशः तत्र अस्तु, तदपि एकवारं पठामः. रघुपतिमहोदय अग्रे पठति वा?
आम् महोदय, एकवारं. शरद् शरद् ततः शरद् शरद् इति प्रातिपदिकमस्ति. शरत् शरदौ शरदः.
एतत्तु शरद् इति ऋतुः इति
शरत्कालः. संसत् इति दकारान्तपुल्लिङ्ग दकारान्तस्त्रीलिङ्गशब्दः. संसत् संसदौ संसदः. परिषद् परिषत् परिषदौ परिषदः.
तत्र संसद् अपि परिषद् प्रायशः अर्थभेदः नास्ति तत्र.
आमामां
संसद् वा परिषद् वा एकमेव.
प्रतिपद् प्रतिपद् इति प्रतिपत् प्रतिपदौ प्रतिपदः.
प्रतिपद् इति तत्तु किम् अस्ति तत्र? प्रथमदिनः तत्र अमावास्य अनन्तरदिनम् इति प्रतिपद् इति प्रतिपत् प्रतिपदौ प्रतिपदः. किन्तु तत्र सर्वाणि दकारान्तपदानि स्त्रीलिङ्गे, तत्र एकवचने किं भवति? तकारः एव आगच्छति. किन्तु तत्र द्विवचने दकारः आगच्छति. किन्तु तत्र सरित् तडित् विद्युत् तत्र एकवचने सरित् तडित् विद्युत् एव अस्ति. अतः तत्र यदि एकवचनरूपं पश्या जानीमः तत्र न वक्तुं शक्नुमः तत्र प्रातिपदिकस्य अन्तिमवर्णः कः. द्विवचन अथवा बहुवचनस्य आवश्यकता अस्ति एव अत्र.
महोदय तत्र सन्धि ये सन्धिवर्गे अस्ति तत्र परिषद् इति अस्ति. परिषद् प्रथमाविभक्ति सु इति प्रत्ययः अस्ति खलु परिषद् तत्र. यद्यपि सकारस्य लोपः भवति परन्तु अग्रे खरि खर् वर्णः अस्ति अतः तत्रापि दकारस्य खर् तवर्गे प्रथमव्यञ्जनं भवति. खरि चत्वं भवति चत्वं भवति परिषद् परिषत् भवति सकारस्य पूर्वं दकार अस्ति अतः अतः एव.
धन्यवादः महोदय, धन्यवादः. अतः तत्र त एव भवति. अतः किं भवति? क्लेशः भवति तत्र एकवचनरूपं.
द्वितीयविभक्तौ औ अस्ति अतः सु औ अस्ति अतः स्वरः अस्ति अतः तदेव तिष्ठति.
तत्रापि
आम् अस्ति इति अस्ति खलु अतः
तत्रापि दकारः तिष्ठति. अतः तत्र द्विवचनरूपस्य ज्ञानम् अथवा बहुवचनस्य बहुवचनरूपस्य ज्ञानम् आवश्यकमस्ति प्रातिपदिकस्य अन्तिमवर्णस्य निर्णयार्थं. किन्तु एतत् सर्वं केवलं हलन्तशब्दानाम् एव नियमः खलु. अस्तु, अग्रे नरेश् महोदय. इदानीं तत्र समिद् इति
समिद् समित् समिद्धौ समिद्धः. क्षुद् क्षुत् क्षुधौ क्षुधः.
तत्र क्षुद् इत्युक्ते क्षुत् क्षुधौ क्षुधः इत्युक्ते
न जानामि.
हङ्गर् महोदय तावदेव. तत्र बुभुक्षा इति यदस्ति तत्र तस्य भावः तत्र अथवा क्षुद् इति स्थाने क्षुधा इति अपि तद्
भवितुमर्हति.
हङ्गरेव
दिश् दिश् दिक् दिशौ दिशः. प्रावृश् प्रावृश्
इदानीं तत्र नूतनं नूतनम् अस्ति एतावत् न दृष्टवन्तः एतत् एतत् प्रावृश् इति एतत् रेनी सीजन् अस्ति. एषा अपि तत्र ऋतुः ऋतुः इति तस्य चिह्नः तत्र
वृष्टिः अस्ति.
सत्यं महोदय, तत्र वार्षिककालः तस्य वर्षकालः इति यद्वदामः तत्र वर्षऋतुः इति तद् प्रावृष् इति इति रूपं तस्य अस्ति, स्त्रीलिङ्गरूपम्
एकं रूप
ऋतुः भगिनि ऋतुः हा किन्तु तत्र प्रावृष् इति तत्र किं किं रैनी सीज़न् इति तत्र प्रावृष् तत्र प्रतिपद् इति दिनमासीत् इदानीं तत्र प्रावृष् इति ऋतुः अस्ति अत्र अपि शरद् इति ऋतुः आसीत् प्रावृष् अपि ऋतुः अस्ति अग्रे महोदय
आशिष् आशीः शिशौ आशिषः
हा अत्र अपि क्लेशः अस्ति यथा अप्सरस् मध्ये अप्सराः अप्सरसौ अप्सरसः तत्र क्लेशः अस्ति एकवचने बहुवचनरूपम् इति अस्ति तादृश तत्र क्लेशः भवति अत्रापि आशीः इति अस्ति किन्तु एकवचने अस्ति आशिषः इति बहुवचनरूपम् अस्ति द्विवचने तु कुत्रापि क्लेशः नास्ति तत्र औ इति सर्वत्र अस्ति इति कृत्वा तद्विवचनरूपम् इति जानीमः किन्तु आशीः इति आशीर्वादः अप्सरस् अपि दृष्टवन्तः पूर्वम् अस्तु इदानीं तत्र
महोदय ऊष्माणाम् अन्ते यदि अस्ति तदनन्तरं तदेव नियमाः सन्ति अप्सरस् अपि सकारान्त षकारान्त तदेव
अतः तत्र एषः नियमः आगतः खलु भगिनि सत्यं समीचीनं भगिनि अतः इदानीम् अत्र वयं अत्र किं जातं वयं किं दृष्टवन्तः तत्र चकारान्तपदं दृष्टवन्तः जकारान्तपदं तकारान्त दकारान्त धकारान्त षकारान्त षकारान्त अपि सकारान्त अनेकाः वर्णाः तत्र सन्ति समीचीनम् इदानीं तत्र अभ्यासं कुर्मः इदानीं तत्र एतादृश अभ्यासं कुर्मः तत्र अजन्त अपि हलन्तशब्दानां मिश्रणं कृत्वा अभ्यासं कुर्मः एतं पुटं दृष्ट्वा एव सर्वाणि पदानि अत्र स्त्रीलिङ्गपदानि सन्ति इदानीं तत्र मनसि स्थापयितुं एतत् कुर्मः तत्र नरेश् महोदय इदानीं पूर्णेन महोदय इदानीं तत्र त्वच् इति अस्ति इदानीं तत्र एतत् स्वीकरोतु महोदय तत्र सात्वक् इति सात्वक् इदानीं तत्र रूपत्रयं वदतु महोदय एकवचने द्विवचने बहुवचने सात्वक् कुत्रापि नास्ति महोदय अहं केवलम् अभ्यासं ददामि तत्र त्वक् इति अस्ति रूपं दृष्ट्वा तत्र सात्वक् इदानीं तस्य द्विवचनरूपं किं भवति
सात्वचौ
सात्वक् ते त्वचौ सा ते ताः
आमां महोदय ते त्वचौ ताः त्वचः
ताः त्वचः समीचीनं महोदय हा इदानीं शुभदा भगिनि तत्र इदानीं तत्र एषा वाक् इति तस्य रूपाणि वदतु भगिनि शुभदा भगिनि म्यूट् मध्ये अस्ति वा
ओ सोरि ऐ वास् आन् म्यूट् ओके सो
वाक् इति अस्ति तद् दृष्ट्वा इदानीम् एषा वाक्
एषा वाक् एते वाचौ एताः वाचः
एताः वाचः समीचीनं धन्यवादः भगिनि अस्तु लक्ष्मी भगिनि अग्रे तत्र स्रज् इति अस्ति स्रक् इति एकवचने तत्र उत्तम स्रक् इति
उत्तम स्रक् उत्तमौ सजौ
न न न उत्तमा इति उत्तम स्त्रीलिङ्गे किम् अस्ति
उत्तमा स्रक् उत्तमे सजौ उत्तमाः सजः
हा समीचीनं भगिनि समीचीनं हा अस्तु इदानीं रघुवीरानन्दमहोदय तत्र सरित् इति अस्ति तत्र दीर्घा सरित्
दीर्घा महोदय
हा दीर्घा स्त्रीलिङ्गे दीर्घा सरित्
सरित् इति स्त्रीलिङ्गं वा महोदय
आमाम् अस्मिन् पुटे एव अस्ति महोदय तत्र चतुर्थपदं पश्यतु तत्र त्वच् वाच् सृच् तदनन्तरं सरित् हा
ओ अहं न
सरित् इति लेक्
स्त्रीलिङ्गं वा
दीर्घा सरित्
दीर्घा सरित् दीर्घे सरित् सरितौ सरिदौ
सरितौ सरितौ दीर्घे सरितौ दीर्घाः
सरितः
सरितः हा दीर्घाः सरितः समीचीनम् अस्तु ललिता भगिनी अग्रे तडित् इति तडित् तत्र हा एषा तडित् तडित् तडित्
तडित्
एषा स्त्रीलिङ्गे किम् अस्ति एषा एते न न स्त्रीलिङ्गे किम् अस्ति द्विवचने किम् अस्ति एषा इति पदस्य
द्विवचने
हा अतः एषा तडित् इदानीं तडित् हा समीचीनम् अस्तु गीताञ्जलि भगिनी इदानीं तत्र विद्युत् इति अस्ति तत्र उत्तमा विद्युत्
उत्तमा विद्युत् उत्तमे विद्युतौ उत्तमाः विद्युतः
हा उत्तमाः विद्युतः समीचीनं हा अस्तु इदानीं रघुपति महोदय तत्र आपद् इति हा तत्र दीर्घा आपद्
दीर्घा आपत् दीर्घे आपदौ दीर्घाः आपदाः
दीर्घाः आपदः समीचीनं महोदय नरेश महोदय अग्रे इदानीं तत्र विपद् इति विपद् सा विपद्
सा विपद्
सा विपत्
ते विपदौ ताः विपदः
समीचीनं हा अस्तु इदानीं पूर्णेन्दु महोदय तत्र सम्पत् इति तत्र देवी सम्पत् सम्पत्
देवी सम्पत् देवौ सम्पदौ देव्यः सम्पदः
देव्यः सम्पदः समीचीनं महोदय अस्तु शुभदा भगिनी इदानीं तत्र शरद् इति तत्र उत्तमा शरत्
ओके उत्तमा शरत् उत्तमे शरदौ उत्तमाः शरदः
हा समीचीनं हा इदानीं लक्ष्मी भगिनी तत्र संसद् तत्र हा तत्र एषा इति एषा संसत्
एषा संसद् एते संसदौ एताः संसदः
हा अस्तु समीचीनं हा इदानीं तत्र किञ्चित् परिवर्तनं कुर्मः तत्र किं क्रियापदमपि योजयामः खलु इदानीं अस्तु इदानीं तत्र रघुवीरानन्दमहोदय इदानीं तत्र परिषद् अत्र तत्र एतत् पश्यामः तत्र किं हा सा परिषद् सा परिषद् अस्ति
सा परिषद्
परिषद्
परिषद् अस्ति ते परिषदौ स्तः ताः परिषदः सन्ति
हा समीचीनं महोदय हा इदानीं ललिता भगिनी तत्र प्रतिपद् प्रतिपद् इति तत्र किं हा सा प्रतिपद् भवति सा प्रतिपत् भवति विवचने
ते प्रतिपदौ भवतः ताः प्रतिपदः भवन्ति
हा समीचीनं हा इदानीं गीताञ्जलि भगिनी इदानीं तत्र समित् इति तत्र उत्तम समित् अस्ति अथवा उत्तम अथवा उत्तम समित् तत्र पूर्वे आसीत् खलु समित् ज्वलति इति अस्तु अतः उत्तम समित् ज्वलति
उत्तम समित् ज्वलति
ज्वलति
समित् इत्युक्ते महोदय
यत् होमे तस्य उपयोगः भवति खलु भगिनि
आहुति
न न न पूर्वमपि चर्चितवन्तः आहुति न यत् यत् काष्ठखण्डं होमस्य होमनिमित्तम् अस्ति तत् सः तत् काष्ठखण्डं उत्तम समित् ज्वलति
उत्तम समित् ज्वलति उत्तमे समिधौ ज्वलतः उत्तमाः समिद्धः ज्वलन्ति
हा इति समीचीनं भगिनि हा अस्तु इदानीं रघुपति महोदय तत्र क्षुद् इति तत्र दीर्घाक्षुद् अस्ति अर्थः न जानामि महोदय केवलम् अभ्यासार्थम् अत्र स्थापितमस्ति
दीर्घाक्षुत् अस्ति दीर्घे क्षुदौ अतः दीर्घाः क्षुदः सन्ति
समीचीनं हा नरेश महोदय इदानीं तत्र दिश् इति तत्र दिश् इति तत्र किं कुर्मः तत्र दिश् तत्र किमपि भवति इति प्रायशः तत् स्वीकुर्मः तावदेव तत्र
विद्यते
हा तत्र
विद्यते
विद्यते विद्यते वा विद्यते वा विद्यते वा
विद्यते विद्यते
विद्यते विद्यते अस्तु विद्यते हा अस्तु नरेश महोदय तत्र सा दिक् विद्यते
सा दिक् विद्यते ते दिशौ विद्येते साः दिशः विद्यन्ते
हा समीचीनं महोदय हा अस्तु पूर्णेन्दु महोदय इदानीं तत्र प्रावृष् इति अस्ति तत्र हा दीर्घ प्रावृत् भवति प्रावृष् इति तत्र भवति भवति महोदय भवति भवति दीर्घ दीर्घ प्रावृट् भवति
दीर्घ प्रावृट् भवति दीर्घे प्रावृषौ भवतः दीर्घाः प्रावृषः भवन्ति
हा इति समीचीनम् इदानीं शुभदा भगिनी तत्र आशिष् इति अस्ति तत्र उत्तमा आशीः ददाति
उत्तमा आशीः ददाति
हा प्रायशः क्षम्यतां भगिनि क्षम्यतां ददाति इति तत्र तु प्रायशः कर्मपदं भवेत् अस्ति अस्ति इति एव स्वीकुर्मः उत्तम आशीः अस्ति
उत्तमा आशीः अस्ति उत्तमे आशिषौ स्तः उत्तमाः आशिषः सन्ति
समीचीनं भगिनि अस्तु लक्ष्मी भगिनि इदानीं तत्र अप्सरस् अतः तत्र सुन्दरी अप्सराः अस्ति
सुन्दरी
अप्सराः
अहं न श्रुत
तत्र अन्तिम तत्र तस्मिन् पुटे एव पठतु भगिनि अन्तिमपदं किमस्ति तत्र किमस्ति तत्र कोष्टके अन्तिमपदं किमस्ति
अप्सरस्
हा अप्सरस् इति प्रातिपदिकं तत्र रूपं किम् अस्ति एकवचने
अप्सराः
हा एकवचने अप्सराः अप्सरसौ अप्सरसः इदानीं तत्र सुन्दरी सुन्दरी अप्सराः नृत्यति इति स्वीकुर्मः हा
सुन्दरी अप्सराः नृत्यति सुन्दर्यौ अप्सरसौ नृत्यदः
नदी नद्यौ नद्यः
सुन्दर्यः अप्सरसः नृत्यन्ति
हा समीचीनं भगिनि धन्यवादः अस्तु इदानीं स एतद् रूपं किञ्चित् मनसि स्थापितम् अस्ति इति मन्ये खलु अतः इदानीम् अग्रे गच्छामः अग्रे अग्रे अभ्यास एकः प्रश्नः
अस्ति मूर्ति शब्दस्य प्रातिपदिकं मूर्तौ मूर्त्यौ मूर्ति मूर्तिः तस्य प्रातिपदिकं
किं भगिनि पूर्वस्मिन् पुटे वा तत्र पूर्वस्मिन् पुटे यत्र तत्र स्रक् अस्ति इति तत्र वा
तत्र
हा तत्र किन्तु तत्र मूर्तौ इति अस्ति तत्र
मूर्त्यौ
न मूर्तौ इति अस्ति मूर्तौ स्रक् अस्ति मूर्त्योः स्रजौ स्तः मूर्तिषु स्रजः सन्ति तद्दृष्ट्वा तत्र मूर्तौ मूर्त्योः मूर्तिषु इति तद्दृष्ट्वा विभक्तिका विभक्तिका इति वक्तुं शक्नोति वा भगिनि
परन्तु अहं न जानाति
जानामि
प्रातिपदिक जानामि
मूर्तिः भगिनि मूर्ति 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 इकारान्तपदं ह्रस्व इकारान्तपदम्
इकारान्तपदं ह्रस्व
इकारान्त तत्र मतिशब्दवत् वा अथवा हरिशब्दवत् वा तत्र हरौ इति सप्तमी भक्तिरूपम् अस्ति हरिषु हरौ हर्योः हरिषु
परन्तु अत्र सप्तमीविभक्ति किमर्थं
हा तत्र स्रक् इत्युक्ते किम् अस्ति भगिनि माला इति खलु माला कुत्र अस्ति माला मूर्तौ अस्ति देवस्य मूर्तिः अस्ति तत्र इदानीम् अवगतं वा भगिनि तत्र माला केवलम् उत्पीठिकायाम् अथवा स्थालिकायां नास्ति मूर्तौ अस्ति हा तत्र पूजानन्तरम् अथवा पूजावेलायां यद्भवति तादृश इति मूर्तौ स्रक् अस्ति नो चेत् अपि यत् अथवा तत्र देव्याः चित्रे अपि तत्र हस्ते हस्तेन तत्र चित्रे भवति खलु अतः तादृश अपि अस्तु तर्हि अस्तु समीचीनं भगिनि अस्तु इदानीं तत्र रघुवीरानन्दमहोदय अग्रे तत्र अग्रिमे पुटे आरम्भं करोति वा
महोदय अभ्यासः
हा
यतोदाहरणं रिक्तस्थानानि पूरयत एकवचनं द्विवचनं बहुवचनं उदाहरणार्थं योषित् योषितौ योषितः वाक् वाचौ वाचः
वाक् अस्ति अग्रे महोदय वदतु
वाच् पदं वाक् अस्ति वाक् वाचौ वाचः स्रक् स्रक् स्रजौ स्रजः
तदपि जकारान्तपदं स्रजः इति अस्ति बहुवचने अतः जकारान्तपदम् अग्रे
त्वचौ त्वचः
त्वक् त्वचौ त्वचः अग्रे
आपत् आपदौ आपदः
आपदः समीचीनं महोदय अग्रे तत्र ललिता भगिनी अग्रे पञ्चम
आपत् विपत् विपदौ विपदः
तत्र एकवचने किम् अस्ति
विपत्
ह हा विपत् तत्र सावधानं विपत् तदनन्तरं विपदौ विपदः अग्रे भगिनि तत्र हा तत्र समिधौ महाप्राणः दकारान्त महाप्राणः अस्ति तत्र समिधौ समितः हा अग्रे
अग्रे आशी आशी आशिषौ
आशीः आशीः तत्र अन्ते विसर्गः अस्ति आशीः
आशीः आशिषौ आशिषः
हा समीचीनं शकारान्तपदं हा अन्तिमं
सम्पत् सम्पत् सम्पदौ सम्पदः
दकारान्तपदं समीचीनं भगिनि अस्तु धन्यवादः अग्रे गीताञ्जलि भगिनि
शरदौ दत्तं दौ इत्युक्ते तकारान्तं महोदय शरत्
हा तत्र द्विवचने दकारान्त अस्ति चेत् तत्र थकारः भवति तकारान्त अथवा दकारान्त द्वयमपि भवितुम् अर्हति खलु भगिनि
आं महोदय प्रातिपदिकं दकारान्त एव किन्तु एकवचने
हा सत्यं सत्यं त भवितुम् अर्हति अथवा द अपि भवितुम् अर्हति समीचीनं भगिनि हा समीचीनं
शरत् शरदौ शरदः परिषत् परिषदौ परिषदः
हा तत्र शरद् तावत् तादृश एव अस्ति खलु भगिनि एतदपि
आं महोदय
अग्रे
परिषदौ परिषदः प्रतिपदौ प्रतिपत् प्रतिपदौ प्रतिपदः
अग्रे
क्षुत् इति तु क्षुत् क्षुधौ क्षुधः
अत्र भेदः अस्ति कः भेदः अत्र
महाप्राण
इदानीं महाप्राणः अस्ति पूर्वम् अल्पप्राणः आसीत् इदानीं महाप्राणः अस्ति समीचीनं भगिनि हा तत्रैव किञ्चित् सावधानम् अपेक्षितम् अस्ति हा अस्तु अग्रे रघुपति महोदय अग्रिमे पुटे इदानीं तत्र चतुर्दश
त्रयोदश समीचीनं करपत्रे खलु महोदय
सर्वं करपत्रे एव तत् यत्र पूर्वं भवान् पठितवान् तत्र एव अग्रिमे पुटे
एकनिमिषं महोदय गगने तदेव
तत्र अग्रिमे पुटे तत्र योषित् योषितौ योषितः सर्वम् आसीत् अस्ति
एकनिमिषं महोदय एकनिमिषः महोदय अन्य कोऽपि
अस्तु नरेश् महोदय अग्रे पठति वा तत्र इदानीं प्रायशः तत्र सरितः इति अस्ति इति हा तकारान्तपदं हा अग्रे महोदय योषित् इत्युक्ते किं महोदय नाम किं
योषित् महिला
हा एतदेव प्रथमपदं वयं दृष्टवन्तः खलु हा समीचीनं महोदय हा समीचीनं हा अग्रे
दिशौ दिशः
हा अन्तिमं
विद्युतः
इति समीचीनं महोदय धन्यवादः अस्तु अत्र केवलं तत्र रूपस्य अभ्यासः इदानीं तत्र क्रियापदस्य अपि अभ्यासः भवति अग्रे किन्तु सर्वं सुलभमेव अस्ति अतः क्लेशः नास्ति इति मन्ये अस्तु पूर्णेन्दु महोदय अग्रिम अभ्यासः आरम्भं करोति वा
उदाहरणम् उचितवाक्यैः रिक्तस्थानानि पूरयत अत्र उदाहरणं दीयते अप्सरः नृत्यति अप्सरसौ नृत्यतः अप्सरसः नृत्यन्ति अनन्तरं सरित् ब्रवहति
तत्र द्विवचने भविष्यति सरितौ सरितौ प्रवहतः सरितः प्रवहन्ति स्रजौ स्तः स्रजौ स्तः तत्र प्रातिपदिक अस्ति स्रज् स्रक् प्रथम एकवचने स्रक् स्रक् अस्ति स्रजौ स्तः स्रजः सन्ति
स्रजः सन्ति अग्रिमम्
आपत् आयाति आपत् तत्र आपत् अस्ति दकारान्त महोदय द्विवचने आपदौ आपदौ आयातः आपदः आयान्ति
आयन्ति प्रायशः
आयन्ति
आयन्ति वा
न जानामि सम्यक्तया महोदय
आयन्ति अथवा आयाति आया इति एव अस्ति वा अस्तु 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 तत् स्वीकुर्मः किन्तु अग्रे परिशीलयामः समीचीनं महोदय अस्तु अग्रे शुभदा भगिनी
पठामि हा
अस्तु अस्तु महोदय रघुपति महोदय अग्रे पठतु
शरत् शरत् राजति
न न सम्पत् सम्पदः वर्तन्ते अपि अस्ति
तर्हि
तत्र प्रायः न दृश्यते वा
न दृश्यते
अस्तु अस्तु शरत् एव
दिशः भान्ति तदेव वा एकनिमिषं महोदय आपत् आयाति इति अस्ति सम्पत् अस्तु अस्तु सम्पत् सम्पत् वर्तते सम्पदौ वर्तेते सम्पदः वर्तन्ते
समीचीनं महोदय इदानीं
शरत् शरत् राजति शरदौ राजतः शरदः राजन्ति
अग्रे महोदय
अग्रे परिषत् सत्य परिषद् अस्ति परिषत् प्रचलति परिषदौ प्रचलतः परिषदः प्रचलन्ति
इति समीचीनं महोदय अस्तु अन्यत् अपि करोतु तत्र
अस्तु महोदय समिध् इति अस्ति समित् ज्वलति समिधौ ज्वलतः समिधः ज्वलन्ति
समिधः ज्वलन्ति समीचीनं महोदय अस्तु अग्रे नरेश महोदय
विलसति विद्युतः विद्युतः विलसन्ति योषित् गायति योषितौ गायतः योषितः गायन्ति दिक् दिक् भाति दिशौ भ्रातः दिशः भ्रान्ति
भ्रान्ति समीचीनं महोदय अस्तु शुभदा भगिनी इदानीम् अग्रिम अभ्यासः
प्रदत्तवाक्यानि एकवचने परिवर्त्य लिखत द एक्साम्पल् इस् दिशः तिशः अन्धकार युताः सो दिस् इस् बहुवचन् वी हेव् टु मेक् इट् इन् टु एकवचन् सो दिशः अन्धकार युताः द एकवचन् बिकम्स् दिक् अन्धकार युता
इत्युक्ते तत्र तत्र अन्धकारयुताः अथवा अन्धकारयुता इत्युक्ते तस्मिन् तत्र तस्यां दिशि अन्धकारः अस्ति इति
सो द फस्ट् वन् इस् कण्ठे स्रजः शोभन्ते द एकवचन बिकम्स् कण्ठे एज़् इट् इस् स्रक् शोभते
हा समीचीनं भगिनि अग्रे
मुखात् संस्कृतवाचः स्फुरन्ति मुखात् संस्कृतवाक् स्फुरति
हा समीचीनं भगिनि हा समीचीनम् अग्रे
जीवने रमणीयाः शरदः आयान्ति
हा आयान्ति एव अस्ति समीचीनं हा
सो जीवने रमणीया शरत् आयाति
हा समीचीनं भगिनि हा धन्यवादः लक्ष्मी भगिनी अग्रे
अस्तु महोदय ग्रीष्मानन्तरं
भवन्ति ग्रीष्मानन्तरं प्रावृट् भवति.
समीचीनं भगिनि, प्रावृट् भवति, समीचीनं भगिनि, एकवचनं समीचीनम्. अग्रे अग्रे
तडितः द्योदन्ते, गगने तडित् द्योतते,
द्योतते, समीचीनं भगिनि. अस्तु अग्रे.
शिष्याय आशिषः सन्तु, शिष्याय आशीः
अस्तु 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 सन्तु इति अस्ति खलु, सन्ति अस्ति सन्ति अस्तु सन्तु, समीचीनं भगिनि. आशीः तत्र अर्थसमान समानार्थकम् अस्ति, किन्तु तत्र रूपं यत् अपेक्षितमस्ति तत्तु अस्तु इति एव इति मन्ये. समीचीनमस्ति भगिनि. अस्तु इदानीं अस्तु करोतु भगिनि.
विद्युतः विद्योदन्ते, विद्युत् विद्योदे,
विद्योतते प्रायशः
विद्योदते.
अग्रे
गृहे सम्पदः सन्ति, गृहे सम्पत् अस्ति,
गृहे सम्पत् अस्ति, समीचीनं भगिनि. अस्तु इदानीं रघुवीरानन्द महोदय अग्रिमे पुटे अभ्यासम् आरम्भं करोति वा. सम्पत् गर्वं जनयति इति आरभ्य.
आं महोदय, प्रदत्तवाक्यानि बहुवचने परिवर्त्य लिखत. सम्पत् गर्वं जनयति, सम्पदः गर्वं जनयन्ति. शिशूनां वाक् मधुरा, शिशूनां वाचः मधुरा.
न न न, तत्र वाक् अपि मधुरा तयोः मध्ये कः सम्बन्धः?
ओ, मधुरा इति प्रथम एकवचनं, मधुरा मधुरे मधुराः, शिशूनां वाचः मधुराः.
हा, समीचीनं महोदय. तत्र मधुरा इति तत्र विशेषणं भवति वाक् इति पदस्य. अग्रे महोदय.
जीवने विपद् आगता, जीवने विपदः आगताः,
आगताः, समीचीनं महोदय. अग्रे.
अत्र परिषत् प्रचलति, अत्र परिषदः प्रचलन्ति. योषित् जलम् आनयति, योषितः जलम् आनयन्ति.
हा, समीचीनं महोदय. अग्रे.
सरित् प्रवहति, सरिदः प्रवहन्ति,
सरितः प्रवहन्ति, समीचीनं महोदय, धन्यवादः. ललिता भगिनी अग्रे.
उपनिषत् ब्रह्मतत्त्वं बोधयति, उपनिषदः ब्रह्मतत्त्वं बोधयन्ति.
अग्रे.
विद्युत् शीघ्रगामिनी वर्तते, विद्युतः शीघ्रगामिनी वर्तन्ते.
विद्युतः इति अस्ति, समीचीनं.
विद्युतः शीघ्रगामिनी वर्तन्ते.
हा, तत्र शीघ्रगामिनी इत्युक्ते किम्? या शीघ्रतया गच्छति सा शीघ्रगामिनी. अतः सा तत्र शीघ्रगामिनी, विद्युत् शीघ्रगामिनी वा अस्ति वा? तत् सत्यं वा भगिनि? विद्युत् शीघ्रगामिनी खलु, अतः तत्र शीघ्रगामिनी अस्ति विद्युत्. इदानीं तत् चिन्तयतु, विद्युत् शीघ्रगामिनी अस्ति इति वाक्य इति वाक्यं चिन्तयतु, तत्र शीघ्रगामिनी अपि विद्युत् तयोः मध्ये कः सम्बन्धः?
लैट्निङ्ग्.
न न न, अर्थः इति प्रश्न इदानीं प्रश्नः न, किन्तु तयोः मध्ये सम्बन्धः अस्ति वा तत्र
अस्ति?
हा, कीदृशः सम्बन्धः,
कीदृशः
तत्र विशेषणविशेष्यभावः इति वदामः खलु, अड्जेक्टिव् अपि नौन् इति, उत्तमः रामः, उत्तमा सीता, तत्र उत्तमा सीता अस्ति, इदानीम् उत्तमा सीतां सीता अस्ति, सीतां नमामि इति भवति चेत् तत्र उत्तमा सीता अस्ति चेत् किं कुर्मः, उत्तमां सीतां नमामि, अतः तत्र विद्युत् इति तत्र बहुवचनरूपं किम् अस्ति, विद्युत्
विद्युतः,
हा, इदानीं तत्र शीघ्रगामिनी इति पदस्य बहुवचनरूपं किमस्ति, न न शीघ्रगामिन्यः नदी नद्यो नद्यः शीघ्रगामिन्यः
गामी इति रामः शीघ्रगामी अस्ति इति भवति,
सत्यं महोदय, तत्र तत्र नकारान्तपदम् अस्ति किन्तु अत्र
अतः
तत्र गामी इति अस्ति तत्र, किन्तु अत्र दीर्घ दीर्घ इकारान्तपदं साधारण दीर्घ इकारान्तपदम् अस्ति महोदय, अत्र ईकारान्त एव, पुल्लिङ्गे पुल्लिङ्गे नकारान्तपदम् अस्ति,
यथा विद्यार्थी इति अस्ति तादृशं
तादृशं तादृशमेव, अपि भवान् शब्द तत्र भवान् इति तु तत्तु नकारान्तपदम् अस्ति, किन्तु भवति इति तु साधारण ईकारान्तपदं, तादृश एव शीघ्रगामिनी इति, अतः ललिता भगिनी वाक्यं किं भवति,
ब्रह्मतत्त्वं उपनिषद ब्रह्मतत्त्वं
अत्र तत्र तु अड्जेक्टिव् नास्ति खलु, ब्रह्मतत्त्वमपि उपनिषत् तत्र कीदृश उपनिषद् इति तत् न वर्णयति खलु, अत्र कीदृश विद्युत् कीदृशी विद्युत् इत्युक्ते विच् टैप् आफ् विद्युत्, शीघ्रगामिनी विद्युत् इति अस्ति, यतः कीदृशी सीता उत्तमा सीता इति समीचीनं भगिनि, हा, अतः वाक्यं किं भवति, विद्युतः विद्युतः
ग्रामिण्यः वर्तन्ते,
हा, समीचीनं भगिनि, अग्रे
अप्सराः तपोभङ्गं करोति, अप्सरसः तपोभङ्गं कुर्वन्ति,
समीचीनं,
कानने समित् वर्तते, कानने समितः वर्तन्ते,
तत्र समिदः
वर्तन्ते, दृक् विशाला अस्ति, दिशः
न न इति नास्ति, दृक् इति अस्ति, दृक्
दृक् विशाला अस्ति, शालाः सन्ति, शाला
विशालाः सन्ति, समीचीनं, हा, समीचीनं, किन्तु दृग् इति
दृगः
न तत्र दृक् इति दृक् न दिश् इति नास्ति,
दृक् दृश्य सो दृश्यपदं सैट्,
हा, सैट् तत्तु तत्तु सत्यं, हा, इदानीं रूपं किं भवति तत्र, तत्र षकारान्तपदं इति मन्ये, तत्र दृश् इति तत्र दृशः इति चिन्तयामि भगिनि, हा, दृशः इति मम चिन्तनं, दृशः विशालाः सन्ति, हा, तत्र किं तत्र दिक् दिश् इति पदस्य दिक् इति एकवचने अस्ति, अपि त्वच् इति पदस्य अपि त्वक् इति अस्ति, किन्तु अतः तत्र दृक् इति त्वच् इव अस्ति वा अथवा दिश् इव अस्ति वा इति प्रश्नः, किन्तु अहं चिन्तयामि तत्र दिक् इति दिक् इव अस्ति इति, दृक् दिग् दिक् इव अस्ति इति, अतः दृशः विशालाः सन्ति इति अहं चिन्तयामि, अस्तु तर्हि, तत्र बहु समीचीनमासीत् अभ्यासं कृतम् अस्माभिः, तत्र हलन्तस्त्रीलिङ्गपदानां परिचयः अपि अभ्यासं क्रियापदेन अपि कृतवन्तः एतावत्। वदतु भगिनि
महोदय, दृक् एकवचनरूपं दृश् मूर्धा महोदय कि तालु दृश्
भगिनि तत् एतत् अहं चिन्तयामि दृश् इति तत्र दिश् इव अस्ति इति चिन्तयामि भगिनि।
ओ दृक् दिश् भवति महोदय,
तादृश तादृश दिश् दृश् इति चिन्तयामि भगिनि। दिक् दिशौ दिशः दृक् दृशौ दृशः इति मम चिन्तनं भगिनि। ऊहा केवलम् ऊहा न जानामि द्रष्टव्यमस्ति किन्तु किन्तु तद् इति
दृक् वन् हू सीस् इति अर्थः भवति वा?
न न न न न न तत्र तस्य ग्लान्स् अथवा तस्य गेज् इति गेज् गेज् इस् वैड् इति अथवा ग्लान्स् इस् वैड् इति तत्र दृक् विशाला अस्ति इति तस् अतः
वन् हू सीस् इति
तादृश अर्थे किन्तु अत्र केवलं सैट् इति सैट् तत्र अस्तु अतः तत्र अस्तु तर्हि तत्र अभ्यास समयः अपि जातः। तत्र रघुवीरन्दुमहोदय अन्ते एकवारं प्रार्थनां वदति वा शान्तिमन्त्रम् इति समापयामः।
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्तिः शान्तिः शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः महोदय।
धन्यवादः महोदय। धन्यवादः।